इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः दिव्यानन्द झाः। अथ वार्ताः। प्रधानमन्त्री नरेन्द्र मोदी अद्य दक्षिणाफ्रीकायां जोहान्सबर्ग नगरे G20 शिखर सम्मेलने सहभागं करिष्यति। श्रीमोदी 16-2000 वर्षे द्विपाक्षिक यात्रायाः अनन्तरं 18-2000 वर्षे 23-2000 वर्षे च ब्रिक्स शिखर सम्मेलने भागग्रहणानन्तरं प्रधानमन्त्रिणः एतत् दक्षिणाफ्रीकायाः चतुर्थी आधिकारिक यात्रा भविष्यति। एतत् प्रथमं G20 शिखर सम्मेलनम् अस्ति यत् अफ्रीकायाः भूमौ भविष्यति, तथा च तस्मिन् सन्दर्भे अफ्रीकादेशस्य विकासस्य विषयेषु चर्चा भविष्यति। सः अवदत् यत् G20 शिखर सम्मेलनानन्तरं प्रधानमन्त्री भारत ब्राजील दक्षिणाफ्रीका नेतृणाम् उपवेशने अपि सहभागं करिष्यति। राष्ट्रपतिः द्रौपदी मुर्मुः ह्यः सिकन्दराबादे राष्ट्रपतिनिलये भारतीय कला महोत्सवस्य द्वितीय संस्करणस्य उद्घाटनम् अकरोत्। अस्य महोत्सवस्य उद्देश्यं गुजरात महाराष्ट्र राजस्थान गोवा दादरा नगर हवेली दमन दीवानां समृद्ध विभिन्न सांस्कृतिक रिक्थानां प्रदर्शनम् अस्ति। गृहमन्त्री अमित शाहः घोषितवान् यत् अग्रिमः एकः वर्षः BSF इति सीमा सुरक्षाबलस्य आधुनिकीकरणाय कर्मचारिणां कल्याणाय च समर्पितः भविष्यति। गुजरातस्य भुजनगरे BSF दलस्य हीरक जयन्त्यवसरे गृहमन्त्री अवदत् यत् गृहमन्त्रालयेन सीमा सुरक्षाबलस्य आधुनिकीकरणार्थं 5-वर्षीयं लक्ष्यं निर्धारितम् अस्ति। सः प्रशासनस्य प्रमुखः उपक्रमः ई बॉर्डर सुरक्षायाः नूतन संकल्पनायाः कार्यान्वयनार्थं BSF इत्यस्य महत्वपूर्णां भूमिकां प्रकाशितवान्। सीमा सुरक्षाबलस्य उपलब्धिः प्रकाशयन् गृहमन्त्री अवदत् यत् अनेन बलेन मादकद्रव्यपदार्थान् अवैधव्यापारं च विरुध्य विविध कार्यक्रमेषु प्रायः 13 लक्ष रूप्यकाणां मादकद्रव्याणि स्वायत्तीकृतानि।
चुनाव आयोग द्वारा जो SIR की प्रक्रिया चल रही है, मतदाता सूची का शुद्धिकरण जो चल रहा है, इसका खिलाफत कर रहे हैं। मैं आज इस हीरक जयंती समारोह में बहुत स्पष्ट करना चाहता हूं कि हम इस देश में से एक एक घुसपैठिए को चुन चुन कर बाहर निकालेंगे, ये हमारा प्रण है।
श्री शाह उक्तवान यत् SIR इत्यनेन मतदातृ सूच्याः शुद्धिकरणं भवति। प्रधानमन्त्रिणा नरेन्द्रमोदिना देशे चतुर्णां श्रम संहितानां कार्यान्वयनाय प्रशासनस्य प्रशंसा कृता। केन्द्रसर्वकारेण ह्यः देशे विद्यमानानां पुरातनानां श्रमाधारितानां विधिनियमानां सरलीकरणं सुव्यवस्थितीकरणं च कर्तुं चतुर्णां नूतनानां श्रम संहितानां कार्यान्वयनस्य घोषणा कृता। श्रमवृत्त्यवसर मन्त्री डॉ मनसुख मांडविया सामाजिकान्तर्जालीय सन्देश माध्यमेन उक्तवान् यत् नूतनाः श्रम संहिताः देशस्य कृते उत्तमां वृत्तिं सुरक्षां सामाजिक सुरक्षां कल्याणं च सुनिश्चितं करिष्यति। 29-2000 वर्षस्य पारिश्रमिक संहिता, 20-2000 वर्षस्य व्यापारिक सम्बन्ध संहिता, सामाजिक सुरक्षा संहिता, व्यावसायिक सुरक्षा स्वास्थ्य संहिता च ह्यः प्रभृति देशे प्रवर्तिताः। संयुक्तारबामीराते दुबई वायु प्रदर्शन्याः अवसरे ह्यः भारतीय वायुसेनायाः तेजस इत्येतत् योद्धृ विमानं क्षतिग्रस्तं जातम्। भारतीय वायुसेनया कथितं यत् अस्यां घटनायां विमानचालकः दिवंगतः। दुर्घटनायाः कारणं ज्ञातुम् अन्वेषणाय आदिष्टम्। IAF संस्थया दिवंगतं विमानचालकं प्रति खेदः प्रकटितः। संस्थया उक्तं यत् सा दृढतया शोकाकुलपरिवारेण सह स्थितास्ति। वार्ताः।